एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। नेकपा एमाले दलेन राष्ट्राध्यक्ष पदे नेपाली सेनायाः परमाधिपति पदे च स्थितायाः पूर्व राष्ट्रपतेः विद्यादेवी भण्डारिणः दलीय राजनीतौ अप्रत्यावर्तनम् एव उचितमस्तीति निष्कर्षः प्रकाशितोऽस्ति। दलस्य ह्य सम्पन्नेन केन्द्रीय समितेः उपवेशेन संविधानस्य परिपालक पदे स्थितस्य राष्ट्राध्यक्ष पदे स्थित्वा कार्यं विहितवतः गणतन्त्रस्य प्रतीकरूपेण विद्यमानस्य च जनस्य दलस्य कार्यकर्तुः नेतृ वा सम्पादनस्य विषये समुचितो नास्तीति निष्कर्षः प्रकाशितोऽस्तीति दलस्य प्रचार विभाग प्रमुखः राजेन्द्र गौतमः असूचयत्। उपवेशस्य पश्चात् ललितपुरस्य च्यासलवर्तिनी दलकेन्द्रीय कार्यालये आयोजिते पत्रकार सम्मेलने प्रमुखः गौतमः पूर्व राष्ट्रपतिं विद्यादेवी भण्डारिणं प्रति उपवेशेन सम्मानस्य प्रकटितोऽस्तीति असूचयत्। पूर्व राष्ट्रपतिना विद्यादेवी भण्डारिणा दलस्य सक्रिय राजनीतौ प्रत्यावर्तनाय निर्णयस्य पश्चात् विषयेऽस्मिन् विमर्शनं प्रारब्धमासीत्। उपवेशेन सप्ततेः वर्षाणां वयसः सीमानं निरस्य कार्यकालद्वये एव अध्यक्षपदे स्थातुं शक्यते इति व्यवस्थाम् अपकृत्य स ओलिनि पुनः दलाध्यक्षपदे स्थातुं मार्गः प्रशस्तीकृतो वर्तते। आगामिनि भाद्रमासे सम्पत्स्यमानेन विधानाधिवेशनेन अस्य निर्णयस्य पारितिभवनानन्तरं क्रियान्वयनं भविष्यति। केन्द्रीय समितेः औपचारिक निर्णयानाम् अन्येषां सार्वजनिकभवनम् अवशिष्टं वर्तते। राष्ट्रियसभायाः ह्यस्तनोपवेशेन अशीत्युत्तर द्विसहस्रतम विक्रमवर्षीयं संघीय सर्वकारीय सेवा विधेयकं प्रकरणगत विमर्शनाय विधायन व्यवस्थापन समितौ प्रेषितमस्ति। उपवेशे संघीय विषय सामान्य प्रशासन मन्त्रिणा भगवती नेउपाने एतनया प्रतिनिधिसभातः ससन्देशं प्राप्तं विधेयकमिदं प्रकरणगत विमर्शनाय विधायन व्यवस्थापन समितौ प्रेषिताम् इति निगद्य प्रस्तुतः प्रस्तावः सभया सर्वसम्मत्या कृतोऽस्ति। विधेयके राष्ट्रियसभायाः त्रिचत्वारिंशत् सांसदाः व्यक्तिगतरूपेण सामूहिकरूपेण च षोडश संशोधन प्रस्तावान् पञ्जीकृतवन्तः। उपवेशे गृहमन्त्रिणा रमेशलेखकेन प्रतिनिधिसभातः ससन्देशं प्राप्तं गतविक्रमवर्षीयं नेपाल नागरिकता द्वितीय संशोधन विधेयकं प्रकरणगत विमर्शनाय विधायन व्यवस्थापन समितौ प्रेषणीयमिति निगद्य प्रस्तुतः प्रस्तावः सर्वसम्मत्या स्वीकृतोऽस्ति। उपवेशे गृहमन्त्री रमेशलेखकः भौतिक पूर्वाधार यातायात मन्त्री देवेन्द्र दाहालश्च सांसदैः उत्थापितान् प्रश्नान् उत्तरं दत्तवन्तौ। तत्पूर्वं सांसदः जलवायु परिवर्तनेन विहितस्य प्रभावस्य जलविप्लवस्य भूस्खलनस्य च क्षतेः मध्यप्रदेशस्य अनावृष्टेश्च विषयेष् सर्वकारस्य ध्यानाकर्षणं विहितवन्तः। राष्ट्रियसभायाः अपरोपवेशः श्रावणमासस्य एकादशे दिवसे रविवासरे दिवासपादैकवादने वस्ता। नेकपा दलस्य संस्थापक महासचिवस्य दिवंगतस्य पुष्पलाल श्रेष्ठस्य सप्तचत्वारिंशत्तमः स्मृतिदिवसः विविधैः कार्यक्रमैः अद्य समायोज्यते। पुष्पलाल श्रेष्ठेन षडुत्तर द्विसहस्रतम विक्रमाब्दस्य वैशाख मासस्य दशमे दिवसे नेकपा दलस्य स्थापना विहिता आसीत्। एकाशीत्युत्तरैकोनविंशति शततम विक्रमाब्दस्य आषाढ मासस्य पञ्चदशे दिवसे रामेछाप जनपदस्य भंगेरी नामके स्थाने जातः पुष्पलाल श्रेष्ठः पञ्चत्रिंशदुत्तर द्विसहस्रतम विक्रमाब्दस्य श्रावण मासस्य सप्तमे दिवसे भारतदेशे उपचारस्य क्रमे दिवंगतः आसीत्। पुष्पलाल स्मृति दिवसस्य अवसरे वामपन्थी दलैः विविधाः कार्यक्रमाः समायोजिताः सन्ति। प्रधानमन्त्रिणा केपी शर्मा ओलिना सह चीनदेशस्य अन्तर्राष्ट्रिय विकास सहायता नियोगस्य अध्यक्षस्य चेन सेवादोङ इत्यस्य नेतृत्वे आगतेन प्रतिनिधिमण्डलेन ह्यः शिष्टाचार मेलवार्ता विहिता अस्ति। बालुवा टारवर्तिनी प्रधानमन्त्री निवासे ह्यः सम्भूते मेलने द्वयोः देशयोः पारस्परिक सम्बन्धस्य अर्थमन्त्रालये गत सोमवासरे सम्भूतायाः द्विपक्षीयायाः संविदायाः विगते द्वयोः देशयोः उच्चस्तरीयस्य भ्रमणस्य अवसरे सम्भूतानां विकास सहकार्याणां संविदायाः क्रियान्वयनस्य च विषयेषु विमृष्टमस्ति। प्रधानमन्त्रिणा ओलिना नेपाल चीन देशयोः दीर्घकालिकस्य मैत्री सम्बन्धस्य विषये चर्चया सहैव नेपालः चीन देशस्य अखण्डतां प्रति प्रतिबद्धोऽस्तीति पुनः उक्तम् वर्तते। प्रधानमन्त्री ओली सम्प्रत्यैव आकस्मिकस्य जलविप्लवस्य कारणेन क्षतिग्रस्तायाः रसुआगढ़ी वर्तिने सीमा प्रवेश बिन्दौ आवश्यक संरचनायाः निर्माणार्थं चीन देशेन दत्तायै प्राथमिकतायै धन्यवादान् व्याहरत्। प्रतिनिधि सभायाः शिक्षा स्वास्थ्य सूचना प्रविधि समितेः ह्यस्तनोपवेशे मीडिया काउंसिल सम्बद्धे विधेयके संशोधन कर्तृभिस्सह विमर्शनम् सम्पन्नमस्ति। उपवेशे षोडश सांसदाः पत्रकारितायाः विकासाय संरक्षणाय च नियमकारिणे भूमिकायै बलं दत्तवन्तः। उपवेशेन गतार्थिकवर्षे विभिन्नेभ्य निकायेभ्य प्रदत्तानां निर्देशनानां क्रियान्वयनस्य प्रगतिविवरणं सप्तदिवसाभ्यन्तरं याचितुं निर्णीतमस्ति। विधि न्याय संसदीय विषय मन्त्री अजय कुमार चौरसिया निगदति मानवाधिकाराणां प्रवर्धनाय सर्वकारः प्रतिबद्धो वर्तते। प्रतिनिधि सभा अन्तर्गतायाः विधि न्याय मानवाधिकार समितेः ह्यस्तनोपवेशे मन्त्री चौरसिया राष्ट्रिय मानवाधिकार आयोगेन प्रदत्तायाः संस्तुतेः सर्वकारेण प्राथमिकतापूर्वकं क्रियान्वयनं विधीयते इति अगदत्। उपवेशे आयोगस्य अध्यक्षः तपबहादुर मगरः मानवाधिकाराणां क्रियान्वयनस्य क्षमताभिवृद्ध्यर्थं बलं प्रदाय सम्बद्धै पक्षैस्सह सहकार्यस्य आवश्यकता अस्ति इति उदैरयत्। उपवेशे सांसदः मानवाधिकाराणां व्यावहारिक क्रियान्वयन पक्षः दुर्बलोऽस्तीत्यतः नीतिनिर्मातृभिः गभीरैर्भाव्यं मानवाधिकाराणां प्रवर्धनाय सर्वकारस्य आयोगस्य च प्रतिबद्धतायै बलं दत्तवन्तः। रूकुम पूर्व जनपदे कानने उत्पन्नं छत्राकं भुङ्क्त्वा एकः बालः मृतोऽस्ति, त्रयो जनाः रुग्णाः वर्तन्ते। रूकुम पूर्व जनपदस्य भूमि ग्रामपालिकायाः पञ्चमवडा क्षेत्रस्य सेरावाङ स्थानस्य पञ्चत्रिंशत् वर्षीयस्याः राजकुमारी सुनार इत्यस्याः पुत्रस्य उपचारस्य क्रमे मृत्युः सम्भूतोऽस्ति। गुल्मी जनपदे आसन्न शतद्वयं वसतयः जलविप्लवस्य भूस्खलनस्य च संकटे वर्तन्ते। एतद् विक्रमवर्षीयायाः जनपद विपदपूर्व कार्ययोजनायाः अनुसारेण जनपदस्य शतद्वयं स्थानानि जलप्लवस्य भूस्खलनस्य च उच्च संकटे वर्तन्ते इति तथ्याङ्को वर्तते। समितेः अनुसारेण अस्मिन् वर्षाकाले जलप्लवस्य भूस्खलनस्य च कारणेन द्वाविंश सहस्राधिकाः जनाः प्रभाविताः भवितुं शक्नुवन्ति इति ज्ञापितं वर्तते। मदन पुरस्कार गुठी संस्थानेन गत विक्रम वर्षस्य मदन पुरस्कारस्य कृते प्रचितानां सप्तानां पुस्तकानां सूची ह्यः सार्वजनिकृता अस्ति। गुठी संस्थानेन ह्यः विज्ञप्तिं प्रकाश्य पुरस्कारस्य कृते प्राप्तेषु नवनवत्युत्तर शतद्वय पुस्तकेषु सप्तानां पुस्तकानां सूची सार्वजनिकृता अस्ति। गुठी संस्थानस्य अध्यक्षः कुन्द दीक्षितः एतेषु सप्तसु पुस्तकेषु एकं पुस्तकं गत विक्रम वर्षस्य मदन पुरस्काराय प्रचष्यते इति असूचयत्। मदन पुरस्कारस्य वित्तराशिः चत्वारि लक्षाणि वर्तन्ते। इति समाचारः।